इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा. अथ वार्ताः. केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः ह्यः नवदिल्ल्याम् आन्ध्रप्रदेशस्य मुख्यमन्त्रिणा एन् चन्द्रबाबु नायडुना सह मेलनं कृतवान्. उपवेशनानन्तरं वार्ताहरैः सह वार्तां कुर्वन् श्रीचौहानः अवदत् यत् भारतस्य कृषिक्षेत्रे आन्ध्रप्रदेशस्य योगदानं प्रायः 10% वर्तते. असौ संसूचितवान् यत् केन्द्रप्रशासनेन नैकासां योजनानाम् उपक्रमाणाञ्च माध्यमेन राज्ये कृषिक्षेत्रं सुदृढीकर्तुं दलमेकं निर्मितमस्ति. श्रीचौहानः एतदपि कथितवान् यत् आन्ध्रप्रदेशः अस्य वर्षस्य केन्द्रीयार्थसंकल्पनापत्रके घोषितानाम् अनेकानां योजनानां कार्यान्वयनार्थं द्रुतगत्या कार्यं कुर्वन्नस्ति. वार्ताहरैः सह वार्तां कुर्वन् आन्ध्रप्रदेशस्य मुख्यमन्त्री एन् चन्द्रबाबु उक्तवान् यत् राज्यं कृषिविभागे नेतृरूपेण उद्भविष्यति. असौ कथितवान् यत् आन्ध्रप्रदेशः सूक्ष्मसिञ्चनस्य प्राकृतिक कृषेः च क्षेत्रे सुदृढः अस्ति. श्रीनायडुः बलं प्रदत्तवान् यत् वर्तमानसमये 20 लक्ष कृषकाः प्राकृतिक कृषिं कुर्वन्ति, येषु 20 लक्ष प्रहलमिताः भूमयः सम्मिलिताः सन्ति. संसदः द्वयोः सदनयोः अद्य केन्द्रीयार्थसंकल्पनापत्रकमालक्ष्य चर्चा पुनः आरप्स्यते. ह्यः अस्यां चर्चायां भागं भजमानः शिवसेना सांसदः मिलिन्द देवड़ा इत्येषः प्रावोचत् यत् अतीव राजनैतिके आर्थिकरूपेण अशान्तिपूर्णे वातावरणे भारतं समष्टि आर्थिक विकासस्य स्थिरतायाश्च दुर्लभ द्वीपत्वेव एकाकी एव राजते. भाजपादलस्य सुरेन्द्र सिंह नागरः अवदत् यत् आय व्ययके आर्थिक विकास वृद्धये जनानाम् आकांक्षा पूर्तये तथा सर्वाः योजनाः जनाः प्राप्नुयुः इति सुनिश्चेतुम् अवधानं प्रदत्तम्. डीएमके दलस्य कणिमोजी एनवीएन सोमु इत्यनेन आय व्ययक प्रस्तावः निर्धन विरोधित्वेन प्रतिपादितः. सहैव असौ प्रोक्तवान् यत् अयं देशस्य आर्थिक यथार्थतातः पृथक् अस्ति. भाजपा दलस्य अपराजिता सारंगी अवदत् यत् अयं केन्द्रीयार्थ संकल्पना पत्रकं प्रशासनस्य निष्ठां विश्वासं निरन्तरतां च दर्शयति. गृहमंत्री अमित शाह अवदत् यत् देशे साइबर अपराधस्य उन्मूलनाय प्रशासनेन अनेके उपक्रमाः प्रारब्धाः. सः एतदपि अवदत् यत् भारतीय साइबर अपराध समन्वय केन्द्रम् I4C इति साइबर अपराधस्य विरुद्धं महत्वपूर्णः मञ्चः अभवत्. एतद्वक्तव्यम् असौ ह्यः नवदिल्ली नगरे साइबर सक्षम कपट निवारणस्य तथा पर्यावरण व्यवस्थायाः विनाशस्य विषये राष्ट्रिय सम्मेलनस्य उद्घाटनानन्तरं प्रदत्तवान्. सर्वोच्च न्यायालयेन केन्द्रम् उद्दिश्य देशस्य विभिन्नेषु भागेषु लुप्तानाम बालानाम घटनायाः पृष्ठे राष्ट्रव्यापी जालः अस्ति वा राज्य विशिष्टः समूहः अस्ति वा इति ज्ञातुम् आदिष्टम्. सर्वोच्च न्यायालयेन केन्द्राय सर्वेभ्यः राज्येभ्यः दत्तांशानां संग्रहणं कर्तुम् आदिष्टम्. आईसीसी पुरुष 20-20 विश्व चषक क्रिकेट क्रीडायां पाकिस्तानेन ह्यः रात्रौ कोलम्बो नगरस्य सिंहली स्पोर्ट्स क्लब इत्यत्र ग्रुप ए इत्येतस्य द्वन्द्वे संयुक्त राज्यामेरिकां 32 अंकैः पराजितम्. तत्रैव एकस्मिन् अन्ये द्वन्द्वे न्यूजीलैंड दलेन ह्यः सायं चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे ग्रुप डी इत्येतस्य द्वन्द्वे नामीबिया दलं 7-0 पराजितम्. अद्य ग्रुप डी इत्येतस्य स्पर्धायां दक्षिणाफ्रीका दलं अद्य प्रातः 11 वादने अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे अफगानिस्तान दलं सम्मुखीकरिष्यति. तत्रैव ग्रुप बी इत्येतस्मिन् स्पर्धायां ऑस्ट्रेलिया दलं मध्याह्ने 3 वादने कोलम्बो नगरस्य आर प्रेमदासा क्रीडांगणे आयरलैंड दलं सम्मुखीकरिष्यति. इति वार्ताः.